श्रीमद् भगवद गीता यथारूप अध्याय क्रमांक चौथा। श्री भगवान उवाच इमं विवस्वते योगं प्रोक्तवान अहम् अव्ययम् विवस्वान् मनवे प्राह मनुर इक्ष्वाकवे ब्रवित एवं परंपरा प्राप्तम् इमं राजर्षयो विदु सकाले नेह महता योगो नष्ट परंतप स एवायं मयातेद्य योग प्रोक्त पुरातन भक्तोऽसि मे सखा चेति रहस्यं ये तदुत्तमं। अर्जुन उवाच अपरं भवतो जन्म परं जन्म विवस्वत कथम हे तद्विजानीयां प्रोक्तवानिति। श्री भगवान उवाच बहूनि मे व्यतीतानि जन्मानि तव चार्जुन तान्यहं वेद सर्वाणि न त्वं वेत्त परंतप। अजोऽपि सन् अव्ययात्मा भूतानामीश्वरोऽपि सन् प्रकृतिं स्वामधिष्ठाय संभवाम्यात्ममायया। यदा यदा हि धर्मस्य ग्लानिर्भवति भारत अभ्युत्थानम् अधर्मस्य तदात्मानं सृजाम्यहम्। परित्राणाय साधूनां विनाशाय च दुष्कृतां धर्मसंस्थापनार्थाय संभवामि युगे युगे। जन्म कर्म च मे दिव्यम् एवं यो वेत्ति तत्त्वतः त्यक्त्वा देहं पुनर्जन्म नैति मामेति स्वर्जुन। वीतराग भय क्रोध मन्मया मामुपाश्रित बहवो ज्ञान तपसा पूता मद्भावमागत। ये यथा मां प्रपद्यन्ते तां तथैव भजाम्यहम् मम वर्तमानो वर्तन्ते मनुष्यः पार्थ सर्वश। कांक्षन्त कर्मणां सिद्धिं यजन्त इह देवता क्षिप्रं हि मानुषे लोके भवति कर्मज। चातुर्वर्ण्यं मया सृष्टं गुणकर्म विभागश तस्य कर्तारमपि मां विद्यकर्तारम् अव्ययम्। न मां कर्माणि लिम्पन्ति न मे कर्म फले स्पृहा इति मां यो भिजानाति कर्मभिर्न स बध्यते। एवं ज्ञात्वा कृतं कर्म पूर्वैरपि मुमुक्षुभि कुरु कर्मैव तस्मात्त्वं पूर्वै पूर्वतरं कृतम्। किं कर्म किम कर्मेति कवयोऽप्यत्र मोहिता तत्ते कर्म प्रवक्ष्यामि यज्ञात्वा मोक्षसे शुभात्। कर्मणोऽपि बोद्धव्यं बोद्धव्यं च विकर्मण अकर्मणश्च बोद्धव्यं गहना कर्मणो गति। कर्मण्यकर्म यः पश्येत् अकर्मणि च कर्म यः स बुद्धिमान् मनुष्येषु स युक्तः कृष्णकर्मकृत्। यस्य सर्वे समारम्भा कामसङ्कल्पवर्जिता ज्ञानाग्निदग्धकर्माणं तमाहु पण्डितं बुध। त्यक्त्वा कर्मफलासङ्गं नित्यतृप्तो निराशय कर्मण्यभिप्रवृत्तोऽपि नैव किञ्चित् करोति सः। निराशीर्यत चित्तात्मा त्यक्त्वा सर्वपरिग्रह शारीरं केवलं कर्म कुर्वन्नाप्नोति किल्बिषन्। यदृच्छा लाभसन्तुष्टो द्वन्द्वैतितो विमत्सर समसिद्धौ असिद्धौ च कृत्वापि न च बध्यते। गतसङ्गस्य मुक्तस्य ज्ञानवस्थितचेतस यज्ञायाचरत कर्म समग्रं प्रविलीयते। ब्रह्मार्पणं ब्रह्महविर् ब्रह्माग्नौ ब्रह्मणाहुतं ब्रह्मेवैतेन गन्तव्यं ब्रह्मकर्म समाधिना। दैवमेवापरे यज्ञं योगिनः पर्युपासते। ब्रह्माग्नौ अपरे यज्ञं यज्ञे नैव पजुह्यति। श्रोत्रादिनीन्द्रियाणिन्ये सम्यग्ज्ञाग्निषु जुह्वति। शब्दादीन् विषयानन्य इन्द्रियाग्निषु जुह्वति। सर्वान्द्रियाणि कर्मणि प्राणकर्माणि चापरे। आत्मसंयमयोग्याज्ञो जुह्वति ज्ञानदीपिते। द्रव्ययज्ञस्तपोयज्ञ योगयज्ञस्तथा पर स्वाध्याय ज्ञानयज्ञाश्च यतयः संशितः व्रता। अपाने जुह्वति प्राणं प्राणे पानं तथा परे। प्राणपानगति रुद्ध्वा प्राणायाम परायणा। अपरे नित्याहार प्राणान् प्राणेषु जुह्वति। सर्वपेते यज्ञविदो यज्ञक्षपितकल्मषा। यज्ञशिष्टामृतभुजो यान्ति ब्रह्म सनातनम्। नायं लोकोऽस्त्ययज्ञस्य कुतोऽन्यः कुरु सत्तम। एवं बहुविधा यज्ञ वितता ब्रह्मणो मुखे। कर्मजन् विद्धि चान् सर्वान् एवं ज्ञात्वा विमोक्षसे। श्रेयान् द्रव्यमयाद्यज्ञात् ज्ञानयज्ञ परन्तप। सर्वं कर्मखिलं पार्थ ज्ञाने परिसमाप्यते। तद्विद्धि प्रणिपातेन परिप्रश्नेन सेवया। उपदेक्षन्ति ते ज्ञानं ज्ञानिनस्तत्त्वदर्शिन। यज्ञात्वा न पुनर्मोहम् एवं यास्यसि पाण्डव। येन भूतान्यशेषानि द्रक्षस्यात्मानि अथो मयि। अपि चेत् असि पापेभ्य सर्वेभ्य पापकृत्तम। सर्वं ज्ञानप्लवेनैव वृजिनं संतरिष्यसि। यथैधांसि समिद्धोऽग्निर्भस्मसात् कुरुतेऽर्जुन। ज्ञानाग्नि सर्वकर्माणि भस्मसात् कुरुते तथा। नहि ज्ञानेन सदृशं पवित्रम् इह विद्यते। तत्स्वयं योगसंसिद्ध काले नात्मनि विन्दति। श्रद्धावान् लभते ज्ञानं तत्परः संयतेन्द्रिय। ज्ञानं लद्भा परं शान्तिम् अचिरेनादिगच्छति। अज्ञश्चाश्रद्धधानश्च संशयात्मा विनश्यति। नायं लोकोऽस्ति न परो न सुखं संशयात्मनः। योगसंन्यस्तकर्माणं ज्ञानसञ्चिन्न संशयम्। आत्मवन्तं न कर्माणि निबध्नन्ति धनञ्जय। तस्मात् अज्ञानसम्भूतं ऋतस्तं ज्ञानसिनात्मनः। चित्वैनं संशयं योगम् आतिष्ठोतिष्ठ भारत। हरे कृष्णा 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 हरे हरे। हरे राम 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 हरे हरे। ओम तत्सदिति श्रीमद्भगवद्गीतासुपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे दिव्यज्ञानयोगो नाम चतुर्थोऽध्यायः।